ससुश्रुतम् सुराध समर्थ शक्रमभिष्टाजे यस्वम् वदेस्तु वदे काम्यम् वसु सहस्रेणे भवमङ्गते सदानीकारेतयो अस्य गुरुतरा इन्द्रस्य समिधो महीः निर्न भुद्मा मघवत्सु बिन्वते यदीम् सुता अमन्दिषु यदीम् सुता स इन्द्रभोभिप्रियममन्दिषुः आपो नधाजिसवनम् मावसो दुःखाजिवोपदाधुषे अनेकसम् मोहवमानमूतये मध्वाहक्षरम् दिधीतयाः आत्मा सोहवमाना स इन्द्रभगुपस्तोत्रेषु दधिरे मामस्वमे स्वध्वरयीयानामत्यो नतोषदे जन्दे सुदाभ्यान् सुरम् दिगोर्तयः पौरे सन्दयसे हवम् रवीरमुग्रम् विभीषिम् धनस्पृतम् विभूतिम् राजसो महः उद्रीवज्रिन्नबलो वासुत्पना सदापिभेदासुषे यद्धनूनम् प्रारापदि यद्वा पृथिव्याम् दिवि जानयिन्द्रहरिभिर्महेमतरिष्वरिष्वेभिरागहि रचिरायोजेते अश्रितमोजो वादस्य विप्रादि एभिर्निदस्य मनुडो निघोरयोजेभिस्वः परीयसे एतावदस्तेव सो विद्यामसूरनव्यसः यथा प्रभजेत सङ्कृत्वे धने यथा वसन्दसव्रजे यथा गन्धे मघवन्मेधे अध्वरे दीर्घनीधेतमूनसि यथा रोदर्ये असीषासो अद्रिवो मयि गोत्रम् हरिश्रियम् यथा मनौ साम्ब्रणौ सोममिन्द्रापि वस्तुतम् ीपादिषौ मघवन्मेध्यादिषौ पुष्टिगौ सृष्टिगौ सचाः पार्षद्वारः प्रसकम्बम् समासादयच्छजानम् दिव्रिमुद्धीतम् सहस्राण्यशिरा सद्गवामृषिस्तोतोदस्य वेवृगाः यगुप्तेभेन विन्दते चिकिज्जरीषिचोदनः इन्द्रम् समुच्छावदनव्यस्य मत्यरिष्यम् तम् न भोजसे यस्मा अर्कम् सप्तशीर्घाणामानृतस्तृधातुमुत्तमे पदे सत्वीमा विश्वा भुवानानि विक्रदलादिज्यनिष्ठपुंस्यम् यो नो दारावसूनामिन्द्रम् तम् भूमहे वयम् यद्बाह्यस्य सुमतिम् नवीयसीम् गमे मनोमतिव्रजे यस्मै त्वम् वसो दानाय शिक्षसि स राजस्पोषमश्नुते अन्वायम् मघवन्निन्द्रगर्वणः सुतामम् दोहवामहे कदाचनस्तरीरशिलेन्द्रसश्चसि दासुषे भोगेन्मघवन्भुजयिन्नु देवानम् देवस्य पृच्छते प्रयो न रक्षे अभ्योजसा कृभिम् वदैः सुष्णम् निघोषयन् यदेतस्तम् भेत्प्रथयम् नमोन्दिगमादिज्यनिष्ठपार्थिवः यस्यायम् विश्वार्यो दासस्येव धिपादि तिरश्चीदर्येन स मे पवीरभिरुद्धे स्वाजते रजिः सुरण्यभो मधुमन्त्रम् कृतस्तुमभिप्रासोऽहमाजुःप्रदेवृष्ण्यम् सपोस्ते सुबालासैन्द्रवः यथा मनौ विभस्वति सोमम् सक्राविभस्तुतम् छन्द इन्द्रजोषस्यायौ मादयसे सखाः ऋषध्येभ्ये मादयिश्वरेन्द्रसुभाने अमन्दसाः यथा सोमन्दसि प्रेतसोऽन्ये स्युमरस्मा विजूनसि यबुद्ध्या केवला दधे यस्तोमं धृषिता पीपत् तस्मै विष्णुश्रीणि पदराबीजक्रम उपामित्रस्य धर्माभिः यस्य त्वमिन्द्रस्तो मेरुचाकनो भाजे भाजिं सकृतो तनुं वा भयं सुजुघामिव गोदुहो जुहोमधिश्रभस्य वाः यो नो जाता सनः पिता महान् उग्रजीवीसा न कृत् अजामन्नु क्रोमघवा पुरोपसर्गोरस्वस्य प्रधातुनः तस्मै त्वं वसो दानायमं भजे तदागस्फोटमिन्वति वसुजवो वसुपतिं सरग्रतुं स्तोमैरिन्द्रं हवामहे कदाचनप्रयुच्छुभे निवासि जन्मणि तुरीयादित्यहवनन्दयेन्द्रियमातस्थावनं दिवि तस्मै त्वं भगवन्निन्द्रगर्वनशिक्षो शिक्षासि आसुषे अस्माकं गिरा उतरुं वासोकं भवच्छृणुधीहम् अस्ताभिमन्वपूर्व्यं ब्रह्मेन्द्राय वोचत पूर्वेर्गृहस्य बृहतीरानूरलस्तोतुं मेधा सृक्षत समिन्द्रो राजो बृहतीराधूनुदसं क्षोणी समुसूर्यम् सं शुक्रासश्रुतयस्सङ्गवाशिरस्तो मागिन्द्रवन्दिवः मघोनां ज्येष्ठं च वृषभाणाम् ओर्भित्तमं मघवन्निन्द्रगोपिदमीशानं राजजीमहे च आयुं कुत्समसि धिग्मवद्रयो वावृधानो दिवे दिवे तं वा भयं हर्यस्वं सरक्रतुं वादयन्तो भवामहे आदो विश्वे राम्रसंवध्वस्यञ्जन्त्वद्रयः ये परापतीन्विवेचनेष्वा ये अर्वापतीन्दवः विश्वाद्वेषांसि जयितावता कृधि विश्वे सन्वन्त्वा वसु श्रीष्ठे मधिरासो अंसभोजत्रासो वस्य कृम्पसि इन्द्रनेदी यजेदीः मितमेधाभिरुचिभिः आसन्तमसन्तमाभिरभिष्टिभिलास्वापे स्वाभिभिः आदितुरं सत्पदिं विश्वदर्षणिं कृति प्रदास्वाभगम् यस्ते साधिष्ठो वसेते स्यामभरेषु ते वयं होत्राभिरुतदेवभूतिभिः सवां सोमनामहे अहं गिते हरिवो ब्रह्म वाजयुराजिं यामि सरोदिभिः स्वामिदेवतममे समस्वयुर्गव्युरग्रेमधीनाम् एतत्त इन्द्रवीर्यम् येभ्यर्गृणन्ति कारवाः ते स्तोभम् तौर्जमावन्धृतस्तुतम् प्रौरासो नक्षम् धीतिभिः नक्षम् त इन्द्रमवसे सुकृत्यराजेषाम् सुतेषु मन्दसे यथा सम्भर्ते अमादो यथा कृत एवास्मे इन्द्रमत्स्व आ नो विश्वे सजोषसो देवा सोग्रन्थनोपनः वसवो रुद्र अपसे नागमन् शृण्वन्तु मरुतो भवम् पूजा विष्णुर्भवनं मे सरस्वत्यवन्तु सप्त सिन्धवः आभोगादः पर्वतासो वनस्पति शृणोतु पृथिवी भवम् इन्द्रराधो अस्ति ते माघो न मघवत्तम तेन नो बोधिसभवाद्यो वृधे भवो दानाय वृत्रहन् आदिपदे नृपते त्वमिद्धिनो बाधावक्षि सुक्रतो वीतिहोत्राभिरुतदेववीतिभिः स सवां सो विशृण्विरे సంవిహ్యాజర్జనానాం అస్మాన్నక్షస్వమగభన్ను పావాసే దుఃఖస్వ విద్యుషీమిషం అజంత ఇంద్రస్తోమేర్విధే మత్వమస్మాకం సదక్రతో మహిస్తూర్ణం సజం రాధో అహ్రజం ప్రస్కరం వాజనితోషయ భూరీరింద్రశరీరా అంబిక్ష మధ్యాజతి రాధస్తేజస్య వేవృక సదం శ్వేతస భుక్షణో దివితారో నరో చందే మన్నాదిమన్నదస్తభుః సదం వేమో సదం సురః సదం ధర్మాణి వాతాని సదం మే బల్భజస్తు కారుణ్యాం చతుశ్శతం దేవాస్థకాన్ వాజనామయో వయో విచరంతః అశ్వాసో నచంక్రమత ఆదిత్సాప్తస్య దర్భిరన్నానో నస్య మహిశ్రవాః శ్యావీరీద్వరన్వరస్త్రక్షూషా చన సంవసే ప్రతిదేతస్రవే మృగరాధో అదర్శహ్రయం యోర్న ప్రాచీనాసవాః దశమహ్యం గౌరక్రరసహస్రాదస్య వేవృగాః నిత్యాద్రారోమంభర శతం మే గర్దభానాం శతమూర్ణావతీనాం శతం దాసాదిశ్రుతరః తరత్రో అభిప్రాణీయతభూతక్రతాయైవ్యక్తా అశ్వానామిన్న గృచ్యాం అనదేర్భ్యవాత్సుమద్రసః అగ్నిశుక్రేణ జ్యోతిరా బృహత్సూరో అరోచత దివిసూర్యో అరోచత ఇవం దే వాక్రతూనా పూర్వేణ యుక్తారథేన విహంగత్రా ఆగచ్చతం నా సత్యాసతీభిరిదం తృతీయం శ్రవణం వివాదః యువాం దేవాస్త్రజ ఏకాదశాసత్యాస్తాది అస్మాకం యజ్ఞం సమానం జుషాణాపాదం సోమశ్వినాయీత్యగ్ని పరాయ్యం తదశ్వినా కృతం వామృషభో దివోరజసః పృథివ్యాః సహస్రం సంసా భూతలే గవిష్టౌ సర్వాంగితాంగుపజాతాధిపత్యై అజలం వాం భాగో నిహితో యజత్రేమాగిరో నాసత్యోపజాతం విపదం సోమం మధుమంతమస్మే ప్రదాశ్వాం సమవతం సతీభిః యమృత్విజో బహుధా కల్పయం తస్సజేతసో యజ్ఞమిమం వహంతి యోహనుజాను బ్రాహ్మణో యుక్తాసీత్కాస్మిత్తత్రయమానస్య సంవిద్ ఏక ఏవాగ్నిర్బహుధా సమిద్ధయేక సూర్యో విశ్వమనుప్రభూతః ఏకైవోరాసర్వాలీనం విభాత్యేకం వాలీనం విబభూవసమరం జ్యోతిష్మంతరం వేదమంతరం త్రిచక్రం సుఖం రథం సుషదం భూమివారం చిత్రామఘాయస్వయోగేధియజ్ఞేతం వాహం భువే అతిరిక్తం విబధ్యై ఇమాని వాం భాగజేయాని దిశ్వర ఇంద్రా వరుణా ప్రమహేషు వాం యజ్ఞే యజ్ఞే హసవనాభురణ్యసో యత్సృంభతే యజమానాయ శిక్షతః విశ్విధ్వరీరోషధీరాపహాస్తామింద్రా వరుణా మహిమానామాసత శత్రుర్ణిరాదేభోభతే సత్యం తలింద్రావరుణాగృహస్య వామద్భూర్మిం దూహతే సప్తవాణీః తాభిర్దాశ్వాం సమవతం బృహస్పతీయో వామలబ్ధో అభిపాతి చిత్తీభిః ృతస్థాభిర్ధత్తమానాయశిక్షతం అవోచామహరే సౌభాగాయ సత్యం ఏషాభ్యాం మహిమానమింద్రియం అస్మాన్ శ్రీంద్రావరుణాభిరాశ్రుతస్తుభిస్తాప్తేభిరవతం సుభస్పతి ఇంద్రావరుణాయ గృహిభ్యో మనీషాం పాతో మనిం సుతమగ్రే స్థానాన్యసృజం తదీరా యజ్ఞం తం బాలాస్తపసాభ్యవశ్యం ఇంద్రావర్ణాసౌమరసమృప్తం రాజస్పోషం యజమానేషు ధత్తం ప్రజాం పుష్టిం భూతిమస్మాసు ధత్తం దీర్ఘాయుత్వాయ ప్రదీరణనాయుః అగ్నిభిర్భూతారంతావృణీమహే ఆత్మానగ్రజతాహవిష్మదీయేష్టం బహిరాసదే అచ్చాహిత్వా సహసూనో అంగిరస్రుతస్తరం జగ్వరే భూర్జోనపాతం ఘృతకే సమీమహేగ్నిం యజ్ఞేషు భూర్జం అగ్నే కవిర్వేదా సిహోతా పాపకయక్ష్యాః అగ్నోజిజుష్టో అధ్వరే శ్రీడ్యో విత్రేభిశుక్రమన్నాభిః అద్రో ఘవావహో సరోజ విష్టదేవాయే అభిప్రయాం సిసుహితావసోగహిమంతస్వధీతిభిర్హిత త్వమిత్ సప్రహా అస్యగ్నేత్రాదర్వృతస్వభిః తాం విప్రాసస్వమిహానదీజివామి వాసంతి వేధసాః స్తోత్రే మహాంకాశి దేవానాం సర్వం మమ సంతు సూరజః సద్రోషాః స్వగ్నయః యథా చిద్రద్ధమదసమగ్నే సంతూర్వశిక్షమి దేవాదహమిత్రమహోరోహస్మద్రుగ్గర్మన్మాగచ్చవేనాది మానోమత్తాయర్గరే రక్షస్వినే మాఘవం సాయీరదః అశ్రేదద్భిస్తరణిభిర్యమిష్టశివేభిః పాహి పాయుభిః పాహి నో అగ్నేకయాభాయూభూతద్విగేయయా పాహి గేర్భిస్తిసృభిరూర్జాంపతే పాహి చ దసృభిర్వసో స్వామిద్ధిష్టం దేవరాజాపిన్నక్షామహే ఆనో అగ్నేవయో గృహం పావకసం సయం స్వాచన ఉపమాదే పురస్పృహం స్వేస్తరం ంసామద్రనాశక్తస్తరం తో అర్జాదిశాః సత్పవనోవర్ధప్రజసా సజీవసోజిన్బాధియో వసువిదాః శిశా నో వృషభోజాగ్నిశృంగేత విద్వత్ సహనభోరప్రదీర్ఘే సుజంభస్సహసోయుగభ నహితే అగ్నే వృషభ ప్రదిభ్రే బ్రహ్మాసోయద్విరిష్టదే సత్వన్నోహోదశ్రుభూతం హరిష్విధిమం స్వానో వాజాపురు శ్రేషే మే మాత్రోస్తన్వామతాసైంధరే అతం ద్రోహవ్యావహసి హవిష్కృతాదిద్దేవేషు రాజసి సప్తహోదారస్తమిదేవేత్వాగ్నే శృత్యమహ్రయం భినశ్చద్రిం తపసా విశోచిషా ప్రాగ్నే రిక్తజనాంగతి అగ్నిమగ్నిం భోగద్రీగుం భువేమ విక్తమర్హిరః అగ్నిం విద ప్రయతస్వ స్వదేష్వాహోనారంతర్గణీనా ేర్మం సతద్రామణ్యగ్నేభ్యంపరమాజం నేదిష్టమూతలే అగ్నేదరీతర్విశ్వరిస్తే పానోదేవరక్షసాహివాన్ గృహవర్మహాంకాశివస్వాయుర్దూరో నయో ీదాఘ్నీవ సోమాజాతుర్జామరక్షణవచ్చన ఇంద్రో అర్వాజితం వదా సద్రాచా సోమీతాసవిష్టాగమద్ ృష్టంధృష్ణిం అప్రాజమగవంతరేదీంద్రక్రద్వాదసావసాయమవాజం తమసి ప్రణవసామక్షుచిలితనంగోద్రివః సద్యో ఊర్ధ్వదీపరైంద్రవిశ్వాభిరుచిభిః భగన్నహిత్వాయసనం వసుయిదమనోసురహరామసి పౌరోస్వస్వృగద్గవామస్విప్సోదేవహిరణ్యజాహిదానం పరిమద్ధిషద్వేద్యామిదాభరేదేవిదాభగం వసుత్తలే ఉద్వామృగస్వమఘభంగమిష్టయముదింద్రాస్వామిష్టలే సహస్రాణి సదాని చూసాదానాయమంభసే ఆపూరం ధరం చగ్రమభిప్రవతాయంతో వాసే అభిప్రో వాజదీధ్విప్రో వేంద్రదేవతా సప్రమందక్రతో ప్రాగామన్యోహం స ఉగ్రవాహుర్మృక్షరుత్వాపురంధరోయి మే శృణబద్ధవం వసూయవో వసూపతిం సదగ్రం సోమేరిణం హవామహే నపాసోహనామహే నారాయాసో నగల్హవేంద్రం ఋణం సదా సుతే సహాయం కృణవామహై ఉగ్రం జోరాజిమదాభ్యం వేదాభ్యం చేతమో భాజినం జమిదూనసేంద్రభయామహేతో నోభయం కృషి మఘవం ఛగ్నితపదం నూతిర్విద్విషో విమృహోరి సంహిరాధస్పతే రాధ సో మహాక్షయస్యాసీ విధత సన్వాపయం మాఘమన్ింద్రగర్వణస్సుతామందోహవామహే ఇంద్రస్మరుతవృత్రహాపరస్వానోరేణ్యః సనో రక్షితశ్చరమం సమధ్యమం సమస్తాత్పాదునః పురః పశ్చాదరాజ్వరాయింద్రిపాహిస్వరాహరేస్మత్వేమిహిరీవ్యం భరమాలే హేతీరదేవీ ఆద్యాస్వస్వయం రత్నాస్వ పరేజనః నిస్వాదనోజరితేంసత్వదేహాదివానకరం చ రక్షిరః ీర్జాయకర్ణాశరక్రోక్ష అస్మాయో मुक्तैरिन्द्रस्य माहीनम् वयो बद्धम् हि सोमिनो भद्रा इन्द्रस्य राजयः अयुजो असमो गृहिरेकृष्टीरजास्याः पूर्वीरधिप्रभावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य राजयः अहीरेण चिदर्वदाजीरदानुशिषा सति प्रवाच्यमिन्द्रदत्तव वीर्याभिकरिष्यतो भद्रा इन्द्रस्य राजयः आयाहि क्रमवामद इन्द्रब्रह्माभिवर्धना येभिः सविष्टजातनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य राजयः ृतश्चिद्भृतम् मनः कृणोत्वम् तीव्रैः सोमैः सवर्गतो नोभिः प्रतिभूतो भद्रा इन्द्रस्य राजयः अवचष्टीषमोमदाङ्गीभवानूषः जुष्टीदक्षस्य सोमिनः सकायम् कृणुते युजम् भद्रा इन्द्रस्य राजयः विश्वेदैन्द्रवीर्यम् देवानुकृतम् भुवो विश्वस्य गोपादिःपुरुष्टुतभद्रा इन्द्रस्य राजयः गृणेतदिन्द्रते सवभुपम् देवतातरे यद्धम् श्रीभद्रमूजसा सजीपते भद्रा इन्द्रस्य राजयः समानेव वपुष्यतः कृणवन्मानुषायुगा ेतदिन्द्रश्चेतमः सुतो भद्रा इन्द्रस्य राजयः उज्जातमिन्द्रते स भूत्वामुतमकृतम् भूरि गो भूरि वामृतमन्तवसर्माणि भद्रा इन्द्रस्य राजयः अहम् तत्त्वम् च वृत्रहम् संयुज्यावसनिभ्यः ीवाचीतद्रिवो नूनौ शूरमंसरे भद्रा इन्द्रस्य राजयः सत्यमिद्वाहुतम् वयमिन्द्रम् स वामनागृहम् महान्द्रसुन्दरोज्योतिम् त्रिसुन्दरो भद्रा इन्द्रस्य राजयः सभूर्यो महानाम् वेनः क्रतुभिरानजे यस्य द्वारा मनुष्मिता देवेषु धिया आनये जीवमानम् नोत्सदम् सोमवृष्टासो अद्रयः मुक्ता ब्रह्मचरणम् स्याः स विद्वान् अङ्गीरोऽध्ययम् रोगाः वृणोदप सुषेदस्य पुंसम् स प्रत्नराकविर्ध इन्द्रो भागस्य भक्षणीः शिवो अर्कस्य होमन्यस्मत्रा गन्तुवसे आधूनुते अनुक्रतुम् स्वाहा परस्य यज्ञवः स्वात्रमर्कानुषेन्द्रगोत्रस्य दामने इन्द्रे विश्वानि वीराः कृतानि कर्त्वानि च यमर्काद्भरम् विदुः यत्पाञ्चरन्यदाभिरेन्द्रे घोषाः सृक्षर हस्त्रीणाद्बर्हणाः विभो ओर्जोमानस्य सक्षयाः इयमूदे अनुष्टुतिश्च गृहेतानि पुंसाः रामश्चक्रस्य वर्तनिम् अस्य वृष्णाव्योदनभुरुक्रामिष्टजीवसे यवन्नपस्वादे तद्दधानाहवस्यवो युष्माभिर्दक्षपितरः श्यामरुत्वतो बृधे बृहृद्विया यथा नरिक्वभिस्सूरनो नः ज्येष्ठामेन्द्रत्वया अस्मे रुद्रमेह नामर्वरासो वृत्रहत्ये भरभूतौ सजोषाः यः संसदे सुपते धायि भद्र इन्द्रज्येष्ठा अस्माङ्गुदेवाः उद्वामन्दन्दुस्तोमा कृणुष्वराधो अद्रिवः अवब्रह्मद्विषो जहि पदापणीराधसो निबाधस्व महान् असि नहि त्वा कश्चन प्रति सुतानामिन्द्रत्वमसूतानाम् त्वम् राजा जनानाम् ये हि प्रेहिक्षयो दिव्या आघोषम् चरणीनाम् ओभे प्रेणा शिरोदसि स्वयम् चित्पर्वतम् गिरिम् सतवन्तम् सहस्रणम् विस्तोद्रभ्योरुरोजिथ अजमुत्वादिवासुते वयम् न त्वम् हवामहे अस्माकम् काममावृण अस्य वृषभो युवातु विग्रीवो अनानदः ब्रह्मा कस्तम् स पर्यति कस्य स्वित्सवनम् वृषाजुष्वा अवगच्छति इन्द्रम् कवु स्विताचरे हन्ते दानाक्षहन्तम् सुवीराक्षे कवु स्विदम् रामः अयम् देवानुषेदने सोमः पूरुषु सूयते तस्ये हि प्रद्रवापिव अयम् ते स जयापति सुषोमा जापति प्रियः आदिवीरे मदिन्तमः मध्य राधसे महे चारुम् वदा जघृष्वरे ये हिन्द्रद्रवापिव यदिन्द्रप्रागपाकुदन्यग्बाहूयसे नृभिः आयाहियूयमासुभिः यद्वा प्रस्रवणे जिवो मादयासे स्वर्णरे यद्वा समुद्रे अन्धसः आत्मानेर्भिर्मामोनुभुवेयामि बभोजसे इन्द्रसोमस्य पीतये आद इन्द्रमहिमानम् भरयो देवते महाः तथेवहम् तु बिभ्रतः इन्द्रगणेशमुस्तुषे महाम् उग्रजीशानकृते येहि नः सुतम् पिब सुदावन्तस्त्वा भयम् व्रजस्वन्तो हवामहे इदम् नो बलिभिरासदे यच्छिद्विषस्व कामसीन्द्रसाधारणस्त्वम् तम् वा भयम् हवामहे इदम् ते सोम्यम् मध्वदुःखम् अद्रिभिर्नराः युषान इन्द्रतत्पीब विश्वाङ्गजो विपश्चितो दिक्षस्तु यमागहि अस्मेधे विश्रवो बृहत् जाता मे बृहदीनाम् दादा हिरण्यवीनाम् मा देवा भगवा बृहत् सहस्रे बृहदीनामधिश्चन्द्रम् बृहत् पृथु शुक्रम् हिरण्यमादरे नपादो दुर्गहस्य मे सहस्रेण सुराधसः सरो देवेष्वक्रद सरोभिर्वभिदत्वसुमिन्द्रम् सबाधभूतये बृहद्गायम् प्रस्तुतसो मे अध्वरे भुवे भरणकारिणम् नयम् दुर्ध्यावरम् तेन स्थिराम् भोमदे सुचिप्रबन्धसः आदृत्या शमानाय सम्भरे दाताय मित्रमुख्यम् यः शक्रो वृक्षोऽशोरो वागीरो हिरण्यजाः स ऊर्वस्य रेलयत्यवा पृथिवीन्द्रो गव्यस्य वृत्रादम् चेद्यः पूरुषम् भृतम् वसूरिद्वपदिदासुरे वज्रेषु शिप्रो हर्यस्वरिकरणिरकृत्वायधावसत् यद्वावन्तपुरक्षोरणाम् वयम् दत्त इन्द्रम्भरामसि यज्ञमुक्तम् दुरम् वचाः स चा सोमेषु पुरुहूतवज्रिभोमदा यद्युक्षसोमाः समिद्धि ब्रह्म कृतेवाङ्गम् वसुरेष्ठस्वम् भरे भुवः अजमेन निगाह्योऽपि वे मेघवज्रिणम् तस्मावु अद्यत मनासुतम् भरानूनम् भूषदश्रुते मृगश्चिदस्य वारणौ रामशिरामजुनेषु भूषति ते मन्नस्तोमम् जुषाणागहीन्द्रप्रचित्रया धिया कदोन्वा अस्य मृतमिन्द्रस्यास्ति पौंसयम् तेनोऽनुकाम् सोमतेननु शुश्रुवे परिवृत्रः कदू महीरदृष्टास्य रवीषीः कदू वृत्रघ्नो अस्तृतम् इन्द्रो विश्वान्वेकनाङ्गहद्रवी अजङ्घादेवपूर्वेन्द्रब्रह्माणि वृत्रहन् पुरुहुतवद्रिवो हृदिन्न प्रभरामसि भूर्वेश्चिद्धित्वे रूपिभूर्मिन्नासोहवन्त इन्द्रोदराः तिरश्चिदर्जः सवनावशोकहितमिष्टश्रुधिमेहवम् वयम् घादेत्वे यद्विन्द्रविप्रापिष्मसि न हि त्वदन्यः पूरुहोदकश्चनमघभन्नस्तीमधिया तन्नो अस्यामदे रुदक्षुभोभिहस्ते रवस्मृधि त्वन्ना भूती तव चित्रलाधिया शिक्षा सरिष्टगा दुविद सोमयित्वस्तुतो अस्तु कलयो माभिभीतन अपेदेषद्भस्मायति स्वयम् भैषो अपायति यान्नक्षत्रियादित्यान्यादिभावहे सृणीताम् अभिष्टये मित्रो नो अत्यम् हतिम् वरुणः परिषदर्जमा आदित्या सोजसा विदुः तेषाम् विचित्रमुख्या अम्बरोधमस्ति दासुरे आदित्यानामलङ्कृते महीवो महतामोऽवगरुणमित्रार्यमन् अवांसावृणीमहे जीवान्नो अभिधेतनादित्या सः पुराहसाद्धस्तः वनश्रुतः यद्भस्रान्ताजसुन्वदेवरोधमस्ति यच्छद्भिः तेना नो अधिवोचत हस्तिदेवाम्भोरुर्वस्तिरक्रमणागतः आदित्याद्भूतैन सह मानस्य दुःसृषेदयम् महेन्द्रेण पुनस्मरि इन्द्रयेद्धिश्रुतो वसि मानो मृतारि भूणाम् मृजिनानामविश्वः देवा अभिप्रवृक्षः उदत्वामादिदेवम् देव्युपब्रुवे सुरैकाभिष्टये पर्षि दीनेकधीराङ्ग्रपुत्रे जिहांसदः माकिस्तोकस्य नोनिषत् अनेहो न गुरुमृभुरुचि विप्रसत्तवे लोकाय जीवसे ये मूर्धानाः क्षुधीनामलब्धासत्वजसः प्रतारक्षन्ते अद्रुभाः तेन आस्मोकारामादित्यासो मोचत स्थेरम् बद्धमीवादिते अपोषुण इयम् सरुरादित्या अपदुर्मतिः अस्मदे त्वजघृषि सस्वद्धिवस्तुदानमादित्या भूतिभिर्भजम् पुरा नूनम् भूभुज्महेः सस्वन्तम् विप्रचेतस प्रतियन्तम् चिदेन सह देवाकृणुत जीवसे तत्सुनोदव्यम् सन्न्यसादित्यायन्मोचति बन्धाद्बद्धमीवादिने नास्माकमस्ति तत्तरादित्यासो हरिश्वरे यूयमस्मभ्यम् मृणत मानो हेतर्विगमस्वदादित्या कृत्रिमासरोः पुरानुजरसोऽवधीत् ेषोऽभ्यम् हरिमादित्यासो विसंहीतम् विश्वग्विबृहतारपाः भद्रम् अपि वाजयमनाः हरिः ओ ीवश्वयामते आवप्रासमहित्वरा यस्य ते महिला महः परिज्ञायन्तमीयतोः सावज्रम् हिरण्ययम् विश्वानरस्य भस्परिवानरस्य सवसः ये वैश्चर्षणीनामूतिहूपेरथानाम् अभिष्टये सदा वृद्धम् स्वर्णेषु यन्नराः नानाभवन्तभूतले परो मात्रमृगेशभमिन्द्रमुक्तम् सुराधसम् ईशानम् चिद्वसूनाम् तन्दरिद्राधासे महेन्द्रम् चोदामि पीतले यः पूर्यामनुष्टुदिवीशे कृष्टीनाम् मृदुः न यस्य ते सवसानसख्यमानम् समर्थाः न हि स्वांसिरे सत् भूतासस्वायुनाम् जयेमृत्सुमद्रिवः ज्ञेभिरीमहेरणम् गेर्भिर्गर्वणस्तम इन्द्रयथापि समादेषु कुर्वाय्यम् यस्य रे स्वादुसख्यम् स्वाद्वी प्रणीतिरद्रिवः यज्ञमवीतम् दसाय्याः पूर्णस्तन्वे एतरा गुरुक्षयाजनस्कृति गुरुणायन्धि जीवसे गुरुम् रथ गुरुम् गव गुरुम् रथायमन्था देववीतिम् वदामहे उपमारणवाद्वानरसोमस्य हर्ष्या तिष्ठन्ति स्वादुरादराः निद्रादिन्द्रोदादेहरीवृक्षस्य सूनवि आश्वमेधस्य रोहिता सुरथाङ्गादिजिग्वेश्वभीषोङ्गार्क्षे आश्वमेधे सुपेशसः क्षरस्वाङ्गादिजिग्वैन्द्रोते वधूमतः सदा भूतक्रतौसनम् ऐषु चेदगृहण्वत्यन्तर्विग्वेश्वरूषि सुभीषुः कसावली न युष्मे वाजबन्धवो निनित्यस्तनमर्त्याः अवद्यमधीधरत् ओ